एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः काष्ठमण्डपो उपत्यकायाम् अस्यैव वैशाखस्य षोडश दिवसात् द्वाविंश दिवसस्य मध्यरात्रम् यावत् अत्यावश्यकेतराः सेवाः यातायातम् च पिधा भविष्यन्ते। काष्ठमण्डप भक्तपुर ललितपुराणाम् प्रमुख जनपदाधिकारिणाम् गतदिने उपविष्टेन संयुक्तोपवेशेन अत्यावश्यकेतराः सर्वाः सेवाः एतस्मिन् अवधौ स्थगयितुम् निर्णीतमिति काष्ठमण्डपस्य प्रमुख जनपदाधिकारी कालीप्रसाद पराजुली रेडियो नेपालम् अज्ञापयत्। अत्यावश्यक सामग्री, परिवहन साधनानि, रोगणानां तेषां सेवकानां च वाहकानि, यानानि, स्वास्थ्यकर्मिभि सुरक्षा निकायैश्च प्रयुक्तव्यानि यातायात साधनानि च विहाय अन्येषां यातायात साधनानां प्रवेशनं निषिद्धं वर्तते। नेपाल सर्वकारस्य कर्मचारिभ्य कोषागाराणां, वित्तीय संस्थानां, अन्यासाम् अत्यावश्यक सेवानां च कर्मचारिभ्यश्च कार्यालयैः प्रदत्तानां परिचयपत्राणाम् आधारेण गमनागमनाय अनुमतिः प्रदीयते। काष्ठमण्डपोपत्यकाम् प्रविष्टाभिः व्यक्तिभिः अनिवार्य रूपेण स्थानीय स्तरेण निर्धारिते सुरक्षणावासे, गृहकान्तवासे च स्थातव्यम् भवति। नेपाले ह्यः सहस्रत्रय पञ्चशते षट्पञ्चाशति च जनेषु कोरोना संक्रमणम् पुष्टीभूतम् वर्तते। कोरोना संक्रमणस्य कारणेन ह्यः अतिरिक्ताः द्वादश जनाः मृताः। ह्यस्तनावधि नेपाले कोरोना संक्रमणस्य कारणेन मृतानां जनानां समग्र संख्या सहस्रत्रयम् षड्सप्तत्यधिक शतम् च प्राप्ता वर्तते। सम्प्रति आराष्ट्रम् द्वाविंशतिः सहस्राणि चतुश्शतम् चतुस्त्रिंशत् च सक्रिय संक्रान्ताः जनाः सन्ति। तेषु अष्टषष्ट्यधिक शतद्वयस्य जनानां सघनोपचार अष्टसप्ततिर् जनानां च कृत्रिम श्वास प्रश्वासोपकरणेषु उपचार विधीयमानोस्थिति स्वास्थ्य मन्त्रालयो ज्ञापयति। कोरोना संक्रमणात् ह्य अष्टसप्तत्यधिक शतत्रयम् जनाः स्वस्थाः सन्ति। स्वास्थ्य जनसंख्या मन्त्रालयेन प्रोक्तव्य प्राणवायुन् उद्योगान् कतिचित् समयस्य कृते पिधापयितुम् उद्योग वाणिज्यापूर्ति मन्त्रालयः अनुरुद्ध वर्तते। स्वास्थ्य मन्त्रालयेन संक्रान्तानां जनानाम् उपचाराय प्राणवायोः अभावं रोद्धुम् उद्योगानां पिधापनाय अनुरुद्धमस्ति। मन्त्रालयस्य सहप्रवक्ता डा समीर कुमार अधिकारी भारते संक्रान्ताः जनाः प्राणवायोः अभावेन म्रियमाणाः सन्तीत्यतः नेपालेऽपि तथावस्थां रोद्धुम् तथाविधान् उद्योगान् कतिचित् समयस्य कृते पिधापयितुम् मन्त्रालयाय ह्य पत्राचारः विहितोऽस्तीति अज्ञा ज्ञापयत्। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा इदानीं देशः कोरोना विषाणु संक्रमणस्य द्वितीय चरणस्य दुश्चक्रे प्राप्तः इत्यत्र सर्वकारस्य ध्यानम् आकर्षति। सभापतिना देउवाभिधेन कोरोना संक्रमणस्य रोगिणानां कृते चिकित्सालयेषु सघनोपचार कक्ष, कृत्रिम श्वास प्रश्वासोपकरणानाम् अभावः विद्यमानोऽस्ति। संक्रान्तानां जनानाम् उपचाराय देशस्य स्वास्थ्य संरचनया क्षमतावहना भावस्य स्थितिश्च सृष्टेति हेतोः यथासमयम् अत्र सचेष्टताम् अवलम्बितुम् विज्ञप्तेर्माध्यमेन अनुरुद्धम् वर्तते। असौ स्वास्थ्य सामग्रीणाम् उपलब्धतायै स्वास्थ्यकर्मिणाम् मनोबलम् उच्चैः विधातुम् आवश्यक व्यवस्थापनाय च सर्वकारेण गभीरेण भाव्यमिति अभियाचितम् वर्तते। सभापतिः देउवा संकटस्य समये मित्रराष्ट्रात् भारतात् दशलक्षाणि, चीनदेशाच्च अष्टौ लक्षाणि च टीकाकरणानि निःशुल्कम् प्राप्तानीति कृत्वा आभारम् प्रकटयति। नेपाल कम्युनिष्ट पार्टी माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः जनतायाः स्वास्थ्यम् न उपेक्षितुम् उच्च प्राथमिकतया सर्वेषु स्थानीय स्तरेषु स्वास्थ्यस्य उपकरणानां सामग्रीणाञ्च उचित व्यवस्थायै च सर्वकारम् अनुरुणद्धि। अध्यक्षः दाहालः ह्यः सायं विज्ञप्तिम् प्रकाश्य महामार्याः सर्वाधिक प्रभावः श्रमजीवी जनतायाम् भवति हेतोः तस्याः कृते खाद्यान्नानाम् अन्य विशेष सहयोगस्य च व्यवस्थायै सर्वकारः नैयक्षेत्रम् च अनरुणत्। त्रिभुवन विश्वविद्यालयेन अद्यतः सञ्चाल्यमानाः सर्वाः परीक्षाः स्थगितीकृताः सन्ति। त्रिभुवन विश्वविद्यालयस्य परीक्षा नियन्त्रण कार्यालय केन्द्रीय परीक्षा सञ्चालन समितेः ह्यस्तनोपवेशेन अद्यतः सञ्चाल्यमानाः सर्वाः परीक्षाः स्थगयितुम् निर्णीतमस्ति। परीक्षा नियन्त्रकः पुष्पराज जोशी कोरोना संक्रमणस्य द्वितीय प्रकोपेण देशस्य विभिन्नेषु स्थानेषु पिधापनम् निषेधाज्ञा च क्रियान्विते स्तः इत्यतः वर्तमान परिस्थितौ परीक्षाणां सञ्चालनस्य अशक्यत्वात् स्थगनीयम् अभूत् इति अज्ञापयत्। त्रिभुवन विश्वविद्यालयस्य वार्षिक परीक्षायाः अन्तर्गतम् स्नातकतरस्य, स्नातकोत्तर द्वितीय वर्षस्य च परीक्षा सञ्चाल्यमानाः आसन्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः उपवेश स्व वैशाखस्य पञ्चदशे दिवसे द्विवादनिवस्ता ह्यस्तन दिवसाय निर्धारित उपवेश पीसीआर विधेय परीक्षणस्य कारणेन स्थगित इति कांग्रेस दल कार्यालयस्य मुख्य सचिव कृष्ण प्रसाद पौडेल अज्ञापयत। उपवेशे दलस्य चतुर्दश महाधिवेशनस्य पूर्व कार्यस्य राष्ट्रस्य सामयिक राजनीतेश्च विषयौ विमृक्षेते इत्युक्तमस्ति। उपप्रधानमन्त्री नेकपा एमाले दलस्य महासचिवश्च ईश्वर पोखरेलः भासते मनमोहन अधिकारिण स्थापिताः आदर्शः सिद्धान्तः मूल्यमान्यता च वामदलानां प्रत्येकं सदस्याय अधुनापि अनुकरणीयः सान्दर्भिक क्यश्च वर्तन्ते। प्रथम जन निर्वाचित वाम प्रधानमन्त्रिणः मनमोहन अधिकारिणः द्वाविंशस्य स्मृति दिवसस्य अवसरे ह्य ललितपुरवर्तिनी मनमोहन स्मृति प्रतिष्ठाने श्रद्धाञ्जलिम् अर्पयन् महासचिवः पोखरेलः नेपालस्य विभक्तं वामान्दोलनम् एकताबद्धं कर्तुं नेत्रा अधिकारिणा महत्वपूर्णा भूमिका निर्व्यूढेति अस्मरत्। नेकपा एमाले दलस्य नेत्रा माधव कुमार नेपालेन सह चतुर्भिः जनैः अध्यक्षेण केपी शर्मा ओलिना दलस्य विधानस्य वैपरीत्येन आत्मानो दण्डिताः इत्युल्लेख्य पञ्जीकारिते आदेशाभियाचना निवेदने सर्वोच्च न्यायालयेन अन्तरिमादेश प्रदानम् अस्वीकृतम् वर्तते। न्यायाधीशस्य प्रकाश कुमार ढुङ्गानाभिधस्य एकल न्यायपीठेन पृष्ठस्य स्पष्टीकरणस्य आधारेण अन्तरिमादेशः प्रदातुं न शक्यते। पक्षद्वयस्य विमर्शनानन्तरमेव एतस्मिन् विषये निर्णयनम् उपयुक्तं भविष्यति इति च ह्य आदिष्टम् वर्तते। सर्वोच्च न्यायालयेन महान्यायाधिवक्तोः कार्यालयस्य माध्यमेन पञ्चदश दिवसानाम् अभ्यन्तरे लिखितोत्तरम् प्रस्तुतुम् आदिष्टमस्ति। नेपाल कम्युनिष्ट पार्टी एमाले दलस्य नेता माधव कुमार नेपालः आत्मना दलस्य दृढीकरणस्य अभियाने प्रवर्तितमस्तीति गदति। ह्य चितवने पत्रकारै सह नेता नेपालः आत्मनि दलविभाजनस्य आरोपो विधीयमानोऽस्तीति भाषमाणः विभाजनस्य अपेक्षया आत्मभि दल सुदृढीकरणस्य अभियाने प्रवर्तितमिति धारणाम् उपस्थापयत्। नेता नेपालः अगदत् दलाध्यक्षेण केपी शर्मा ओलिना दलम् एकताबद्धम् विधेयम्। जनकपुरात् जयनगरम् यावत् विपुलकाय रेलस्य सञ्चालनाय पूर्वकार्यम् अन्तिमचरणे प्राप्तमस्ति। सम्प्रति कर्मचारिभ्यः प्रशिक्षणस्य कार्यम् विधीयमानमस्ति। सुरक्षा सम्बद्ध प्रशिक्षणस्य समाप्तिमनु आगामिनो ज्येष्ठमासस्य प्रथम सप्ताहे रेल सेवायाः उद्घाटनाय पूर्वकार्यम् विधीयमानमस्ति इति नेपाल रेल सेवा संस्थानेन ज्ञापितम् वर्तते।